गुणां स्त्री समाराध्य कालिं प्रदाना बभूवुः अनादिं सुरादिं अखादिं भवादिं स्वरूपं त्वदीयं न विन्दन्ति देवाः।
श्रीकालिकाष्टकम्।